अथ सप्तम स्कंध
अथाष्टमोध्याय नारद उवाच अथ दैत्यसुता सर्वे श्रुत्वा तदनुवर्णितम् जग्मिहुर्निर्वद्यत्वा नैव गुरुवलु शिक्षितम् अथाचार्यसुतस्तेषाम् बुद्धिमेकान्त संस्थितम् आलक्षत भीतस्त्वरितो राज्ञ आवेदयद् लुब्जथा श्रुत्वा तदप्रियम् दैत्यो दुःसहम् तनयानयम् कोपावेश्चलद्गात्रः पुत्रम् हन्तुम् मनो दधे क्षिप्त्वा परुषया वाचा प्रह्लादमतदर्हणम् आहेक्षमाणः पापेन तिरश्चीनेन चक्षुषा प्रश्रयावनतम् दान्तम् बद्धाञ्जलिमवस्थितम् सर्पः पदाहतैव श्वसन् प्रकृतिदारुणः हे दुर्विनीतमन्दात्मन् कुलभेदकराधम स्तब्धम् मच्छासनोद्धूतम् नेष्येत्वाद्यजमक्षयम् क्रुद्धस्य जस्य कम्पन्ते त्रयो लोकः सहेश्वरः तस्य मे भीतवन्मूढ शासनम् किम् बलत्यगः प्रह्लाद उवाच न केवलम् मे भवतश्च राजन् सवै बलम् बलिनाम् च परेषाम् परे वरे मे स्थिरजङ्गमाये ब्रह्मादयो येन वशम् प्रणीतः स ईश्वरः काल उरुक्रमो सा ओजः सह सत्त्वबलेन्द्रियात्मा स एव विश्वम् परम स्वशक्तिभिर्सृजत्तवत्यप्तिगुणत्रयेषः जह्यासुरम् भावमिमम् त्वमात्मनः समम् मनोधत्स्वन सन्ति विद्विषः रीते जितादात्मन उत्पथ स्थितात् तद्धि यनन्तस्य महासमर्हणम् दस्युन्पुरा शर्ण विजित्य लुम्पतो मन्यन्त एके स्वरिता द्विशो दश जितात्मनोज्ञस्य समस्य देहिनाम् साधो स्वमोह प्रभवा कुतः परे हिरण्यकश्यपुरुवाच व्यक्तम् त्वम् मर्तु कामोऽसि ज्योतिमात्रम् विकथसे मुमूर्षुणाभिमन्दात्मन्ननु शिर्विप्लवा गिरः यस्त्वया मन्दभाग्युक्तो मदन्यो जगदीश्वरः क्वासौ यदि स सर्वत्र कस्मात् स्तम्भे न दृश्यते सोऽहम् विकथमानस्य शिरः कायाधरामि ते गोपायेत हरिस्त्वाद्य जस्ते शरणमीप्सितम् एवम् दुरुक्तैर्मुहुरर्दयन्दुषा सुतम् महाभागवतम् महासुरः खड्गम् प्रगृह्योत्पतितो वरासनात् स्तम्भम् तताडाति बलः स्वमुष्ठिना तदैव तस्मिन्निनदोति भीषणो बभूव जेनाण्डकटाहमस्फुटत् यम् वै स्वधिष्णोपगतम् त्वजादयः श्रुत्वा स्वधामाप्ययमङ्गमे निरे स विक्रमन् पुत्रबधेप्सुरोजसा निशम्य निर्ह्रादमपूर्वमद्भुतम् अन्तः सभायाम् न ददर्श तत्पदम् वितत्र सुरजेन सुरारिजुत्थपः सत्यम् विधातुम् निजभृत्य भासितम् व्याप्तिम् च भूते स्वखिलेषु चात्मनः अदृश्यतात्यद्भुतरूपमुद्वहन् स्तम्भे सभायाम् न मृगम् न मानुषम् स सत्त्वमेनम् परितोऽपि पश्यन् स्तम्भस्य मध्यादनु निर्जिहानम् नायम् मृगो नापि नरो विचित्रम् अहो किमेतन्नृमृगेन्द्ररूपम् मीमांसमानस्य समुत्थितोग्रतो नृसिंहरूपस्तदलम् भयानकम् प्रतप्त चामी करचण्डलोचनम् स्फुरत् शटाकेसरजृम्भिताननम् करालद्रष्टम् करवालचञ्चलच्छुरान्त जिह्वम् भ्रुकुटीमुखोल्बणम् स्तब्धोर्ध्वकर्णम् गिरिकन्दराद्भुत व्यातास्य नाशम् हनुभेदभीषणम् दिवि स्पृशत्कायमदीर्घपीवर ग्रीवोर्वक्षस्थलमल्पमध्यमम् चन्द्रांशुगौरैश्छुरितम् तनूरुहैर्विश्वग्भुजानेकशतम् नखायुधम् दुरासदम् सर्वनिजेतरायुध प्रवेकविद्रावितदैत्यदानवम् प्रायेण मेयम् हरिणोरुमायिना बध स्मृतोऽनेन समुद्यतेन किम्। एवं ब्रुवंस्तभ्य पतद गदायुधो न दद नृसिंहम प्रति दैत्य कुंजरः अलक्षितोग्नौ पतितः पतंगमो यथा नृसिंह जशिषो सुरस्तदा न तद विचित्रं खल सत्वधामनि स्वतेजसायोन पुरा पिबत्तमः ततोऽभिपद्याभ्यहनन् महाशुरो रुषा नृसिंहम् गदयोर्वेगया तम् विक्रमन्तम् सगदम् गदाधरो महोरगम् तार्क्षसुतो यथाग्रहित् स तस्य हस्तोत्कलितस्तदाशुरो विक्रीडतो यद्वदहिर्गरुत्मतः असाधुमन्यन्त हृतौकसोमरा घनच्छदा भारत सर्वधिष्णपः तम् मन्यमानो निजवीर्य सङ्कितम् यद्हस्तमुक्तो नृहरिन्महासुरः पुनस्तमासज्जत खड्ग चर्मणि प्रगृह्य वेगेन जित शमो मृधे तम् श्येन वेगम् शतचन्द्र बर्त्मभिश्चरन्तमच्छिद्रमुपर्यधो हरिः कृत्वाट्टहासम् खलमुत्स्वनोल्बणम् निमीलिताक्षम् जगृहे महाजवः विश्वक्स्फुरन्तम् ग्रहणातुरम् हरिर्व्यालो यथा खुम्कुलिसाक्षतत्वचम् द्वारि उर आपात ददार लीलया नखैर्यथा हिम् गरुणो महाविषम् संलम्भ दुष्प्रेक्ष्य करालोचनो व्याताननान्तम् बिलिहन् स्वजिह्वया अश्रिग्लवाक्तारुण केसरानन यथान्त्रमाली द्विपहत्यया हरिः नखाङ्कुरोत्पाटित हृत् सरोरुहम् विसृज्य तस्यानुचरानुदायुधाम् अहन् समन्तान्नखशस्पार्श्विभिर्दुर्दण्डजूथोऽनुपथान् सहस्रशः शटावधूता जलदः परापतम् ग्रहाश्च तद्दृष्टिविमुष्ट रोचिषः अम्भोधयः श्वासहता विचुक्षुभुर्निर्हाद भीता दिग्भा विचुक्रुषुः द्यस्तत्सटक्षिप्त विमान संकुला प्रोत्सर्पतक्ष्मा च पदाति पीडिता शैलाः समुत्पेतुरमुष्य रङ्घसा तत्तेजसा खम् ककुभो नरे जिरे ततः सभायामुपविष्टमुत्तमे नृपासने संभृत तेजसं विभुम् अलक्षित द्वैरथमत्यमर्षणम् प्रचण्ड वक्त्रम् न बभाज कश्चन निशम्य लोकत्रयमस्तकज्वरम् तमादिदैत्यम् हरिणा हतम् मृधे प्रहर्ष वेगोत्कलिता ननामुः प्रसून वर्षैर्बविशुः सुरस्त्रियः तदा विमानावलिभिर्नभस्तलम् दिदृक्षताम् सङ्कुलमाशनाकिनाम् सुरान्नकादुन्दुभयोऽथ जघ्निरे गन्धर्वमुख्या ननतुर्जगुस्त्रियः तत्रोपव्रज्य विबुधा ब्रह्मेन्द्रगिरिशादयः ऋषयः पितरः सिद्धा विद्याधरमहोरगः मनवः प्रजानाम् पतयो गन्धर्वाप्सरचारणः जक्षा किम् पुरुषास्तात बेतालः सिद्ध किन्नरः ते विष्णुपार्षदाः सर्वे सुनन्दकुमुदादयः मूर्ध्निम् बद्धाञ्जलिपुटा आसीनम् तीव्रतेजसम् ईडिरे नरसार्दूलम् नाति दूरचरः पृथक् ब्रह्मोवाच नतोऽस्म्यनन्ताय दुरन्तशक्तये विचित्रवीर्याय पवित्रकर्मणे विश्वस्य सर्गस्थितसंयमान् गुणैः स्वलीलया सम्बधते व्ययात्मने श्रीरुद्र उवाच कोपकालो युगान्तस्ते हतोऽयमसुरोऽल्पकः तत्सुतम् पायुपसृतम् भक्तम् ते भक्तवत्सला इन्द्र उवाच प्रत्यानीतः परम् भवता त्रायता नः स्वभागा दैत्याक्रान्तम् हृदय कमलम् त्वद्गृहम् प्रत्यबोधि कालग्रस्तम् कियदिदमहो नाथ शुश्रूषताम् ते मुक्तिस्तेषाम् न हि बहुमता नारसिंहा परैः किम् ऋष्य ऊचुः त्वम् नस्तपः परममाथ जदात्मतेजो जेनेदमादिपुरुषात्मगतम् ससर्ज तद्विप्रलुप्तमौनाद्य शरण्यपाल रक्षा गृहीत वपुषा पुनरन्वमंस्था पितरौचुः श्राद्धानि नोऽधिगुबुजे प्रसभम् तनुज्जे दत्तानुतीर्थ समये प्यपिबत्ति लांबु तस्योदरा नख विदीर्ण वपादेयार्छ तस्मै नमो नृहरयेखिल धर्म गोत्रे सिद्धा उचुः यो नो गतिं जोग सिद्धाम साधु अहार सिद्ध जोग तपो बलेन नाना दर्पण तन्ख निददार तस्मै तुभ्यं प्रणतास्मनो नृसिंह विद्याधरा उचुः विद्यां पृथक धारणयानुराधा न्यसेधदज्ञो बलवीर्यदीप्तः सजेन संखे पशुवधतस्तं माया नृसिंहं प्रणतास्म नित्यम् नागा उचु येन पापेन रत्नानि स्त्रीरत्नानि हृतानि च तद्वक्षः पाटलेनाशान् दत्ता आनन्द नमोऽस्तु ते मनव उचु मनो वयं तौ निदेशकारिणौ दितिजेन देव परिभूत सेतवः भवता खलु स उपसंहृतः प्रभो करवामते किमनुषाधिकिङ्करान् प्रजापतय उचु प्रजेशा वयं ते परेशाभिशिष्टा न येन प्रजा वै सृजामो निषिद्धा स एष त्वया भिन्न वक्षानुशेते जगन्मङ्गलं सत्त्वमूर्तेऽवतारः गन्धर्वा उचु वयं विभोते नटनाट्य गायका जेनात्मसाद्वीर्ज बलौज साकृतः स एष नीतो भवता दशामिमां किमुत्पथस्थः कुशलाय कल्पते चारणा उचु हरे तवाङ्घ्रिपङ्कजं भवापवर्गमाश्रितः जदेश साधुवृच्छयस्त्वया सुरः समापितः यक्षा उचुः वयमनुचरमुख्या कर्मभिस्ते मनुज्ञे तैह दिति सुतेन प्रापिता वाहकत्वम् स तु जनपरितापम् तत्कृतम् जानता ते नरहर उपनीतः पञ्चताम् पञ्चविंशाम् किम् पुरुषा उचुः वयम् किम् पुरुषास्त्वम् तु महापुरुष ईश्वरः अयम् कुपुरुषो नष्टो धिक्कृतः साधुभिर्जदा वैतालिका उचुः सभा सुसत्रेषु तवामलम् जसो गीत्वा सपर्याम् महतीम् लभामहे जस्ताम् व्यनयसिद्भृशमेश दुर्जनो दृष्ट्या हतस्ते भगवन् जथामयः किन्नरा उचुः वयमीश किन्नरगणास्तवानुगादितिजेन विष्टिममुनानुकारिता भवता हरेः स वृजिनो वसादितो नरसिंहनाथ विभवाय नो भव विष्णुपार्षदा उचुः अद्यैतद्हरिनररूपम् अद्भुतम् ते दृष्टम् नः शरणद सर्वलोकशर्म सोऽयम् ते विधिकर ईश विप्रसप्तस्तस्येदम् निधनम् अनुग्रहाय विद्मः इति श्रीमद्भागवते महापुराणे पारमहंस्याम् संहितायाम् सप्तमस्कन्धे प्रह्लादानुचरिते दैत्यराजवधे नृसिंहस्तो नामाष्टमोऽध्यायः